आद्यास्तोत्रम् ओं नमः आद्यायै श्रीनुवत्स प्रवक्ष्यामि आद्यास्तोत्रं महाफलम् यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः मृत्युव्याधिभयं तस्य नास्ति किञ्चित् कलौयुगे अपुत्रा लभते पुत्रान् त्रिपक्षं श्रवणं यदि द्वौ मासौ बन्धनान् मुक्तिर्विप्रवक्त्रत् श्रुतं यदि मृतवत्सा जीववत्सा शनवासं श्रवणं यदि नौकायां सङ्कटे युद्धे पतनाज्जयमाप्नुवत् लिखित्वा स्थापयेत् गेहे नाग्निचौरभयं कचित् राजस्थाने जैनीत्यान् प्रसन्नाः सर्वदेवता ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला इन्द्राणी अमरावत्यम्बिका वरुणालये यमालये कालरूपा कुबेरभवने शुभा महानन्दाग्निकोणे च वायव्यं मृगवाहिनी नैरीत्यां रक्तदन्ता च वैशान्यां शूलधारिणी पदले वैष्णवीरूपा सिंहले देवमोहिनी शुरसा च मणिदीपे लङ्कयं भद्रकालिका रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे विरजा ओढ्रदेशे च कामाख्यानीलपर्वते कालिकावङ्गदेशे च अयोध्यायां महेश्वरी वारणस्यमन्नपूर्णा गयाक्षेत्रे गयेश्वरी कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा द्वारकायां महामाया मथुरायां महेश्वरी सुधातं सर्वभूतानां बेलात्वं सागरस्य च नवमी शुक्लपक्षस्य कृष्णस्य एकादशी परा दक्षस्य दुहिता देवी दक्षयजनविनाशिनी रामस्य जनकी त्वं हि रावणध्वंसकारिणी चण्डमण्डवधे देवी रक्तबीजविनाशिनी निशुम्भशुम्भमथनी मधुकैटवघातिनी विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा आद्यास्तवम् इमं पुण्यं यः पठेत् सततं नरः सर्वज्वरभयं नश्यात् सर्वव्याधिविनाशनं कोटितीर्थफलं तस्य लभते नात् संशयः जयामे चाग्रतः पातु विजया पातु पृष्ठतः नारायणी शीर्षदेशे सर्वाङ्गसिंहवाहिनी शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी विशालक्षी महामाया कौमारी शङ्खिनी शिवा चक्रिणी जयदात्री च रणमत्तरणप्रिया दुर्गा जयन्ती काली च भद्रकाली महोदरी नारसिंही च वाराही सिद्धिदात्री सुखप्रदा भयङ्करी महारौद्री महाभयविनाशिनी इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्यास्तोत्रम्।